Let's start.
यदा संहरते चायं
यदा संहरते चायं
कूर्मोंगानीव सर्वशः
कूर्मोंगानीव सर्वशः
इन्द्रियाणीन्द्रियार्थेभ्यः
इन्द्रियाणीन्द्रियार्थेभ्यः
तस्य प्रज्ञा प्रतिष्ठिता
तस्य प्रज्ञा प्रतिष्ठिता
Once again.
यदा संहरते चायं
यदा संहरते चायं
कूर्मोंगानीव सर्वशः
कूर्मोंगानीव सर्वशः
इन्द्रियाणीन्द्रियार्थेभ्यः
इन्द्रियाणीन्द्रियार्थेभ्यः
तस्य प्रज्ञा प्रतिष्ठिता
तस्य प्रज्ञा प्रतिष्ठिता
उत्तमम् नाउ नेक्स्ट वन
विषया
विनिवर्तन्ते
निराहारस्य देहिनः
निराहारस्य देहिनः रसवर्ज्यं रसोप्यस्य
परं दृष्ट्वा निवर्तते
परं दृष्ट्वा निवर्तते
Once again
विषया
विनिवर्तन्ते
निराहारस्य देहिनः
निराहारस्य देहिनः रसवर्ज्यं रसोप्यस्य
परं दृष्ट्वा निवर्तते
परं दृष्ट्वा निवर्तते
उत्तमम् These are very, very important shlokas, okay? Very important in life. You will see that in our meaning and tidbit. Okay?
Okay, Mammu.
Now, chanting together?
Yes, Mammu.
Yada samharate chayam Kurmongani vasarvashah Indriyani indriyarthebhyah Tasya prat ज्ञा प्रतिष्ठिता विषया विनिवर्तन्ते निराहारस्य देहिनः रसवर्ज्यं रसोप्यस्य परं दृष्ट्वा निवर्तते
इनु